श्री गणेशाय नमः। अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौंशिकऋषिः अनुष्टुप् छन्दः श्रीसीतारामचन्द्रो देवता सीताशक्तिः श्रीमद्हनुमानकीलकम् श्रीसीतारामचन्द्रप्रीत्यर्थे श्रीरामरक्षास्तोत्रजपे विनियोगः। ध्यानम् ध्याये राजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्। वामाङ्कारूढसीता मुखकमलविलल्लोचनं नीललाभं नारालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम्। चरितं रघुनाथस्य शतकोटिप्रविस्तरम् एकैकमक्षरं पुंसां महापाटकनाशनम्। ध्यात्वा नीलोद्भलश्यामं रामं राजीवलोचनं जानकीलक्ष्मणोपेतं जटामकुटमण्डितम्। सासितूणधनुर्बाण पाणिं दत्तं चरान्तकम् स्वलीलया जगत्रातुम् आविर्भूतमजं विभुम्। रामरक्षां पठे प्राज्ञ पापघ्निं सर्वकामनां शिरो मे राघव पातु भालं दशरथात्मजः। कौसल्येयो दृशो पातु विश्वामित्रप्रियश्रुति घ्राणं पातु मघद्राता मुखं सौमित्रिवत्सलः। जिह्वां विद्यानिधि पातु कण्ठं भरतवन्दितः स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकारुकः। करौ सीतापतिः पातु हृदयं जामदग्न्यजित् मध्यं पातु करध्वंसी नाभिं जाम्बवदाश्रयः। सुग्रीवेशः कटी पातु सक्थी हनुमत्प्रभुः ऊरुरघुत्तमः पातु रक्षकुलविनाशकृतः। जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः पादौ विभीषणश्रीर पातु रामखिलं वपु। एतां रामबलोपेतां रक्षां यः सुकृती पठे सच्चिरायुः सुखी पुत्री विजयी विनयी भवेत्। पातालभूतल चारिणश्छद्मचारिणः न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः। रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् नरौ न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति। जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितं यः कण्ठे धारयेत् तस्य करस्था सर्वसिद्धयः। वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् अव्याहतान्यः सर्वत्र लभते जयमङ्गलम्। आदिष्टवान् यथा स्वप्ने राम रक्षामि मां हरः तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः। पुण्डरीक विशालाक्षं चीरकृष्णाजिनाम्बरं फलमूलाशिनं दान्तं तापसौ ब्रह्मचारिणं पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मतां रक्षकुलनिहन्तारौ त्रायेतां नौ रघुत्तमौ आत्यसज्जधनुषा विशुश्रुषा वक्षयाशुभनिशङ्खसङ्गिनौ रक्षणाय मम राम रक्ष्मणा वग्रतः पथि सदैव गच्छताम् सन्नद्ध कवची खड्गी चापबाणधरो युवा गच्छन् मनोरथान्नश्च रामः पातु स लक्ष्मणः रामो दाशरथी शूरो लक्ष्मणानुचरो बली काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः वेदान्तवेद्यो यज्ञेश पुराणपुरुषोत्तमः जानकीवल्लभः श्रीमान् अप्रमेयपराक्रमः इत्येतानि जपन्नित्यं मद्भक्तश्रद्धयान्वितः अश्वमेधाधिकं पुण्यम् सम्प्राप्नोति न संशयः रामं दूर्वादलश्यामं पद्माक्षं पीतवाससं स्तुवन्ती नामभिर्दिव्यैर्हते संसारिणो नरः रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरम् काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिं रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीतायाः पतये नमः श्रीराम राम रघुनन्दन राम श्रीराम राम भरताग्रज राम राम श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रचरणौ वचसा गृणामि श्रीरामचन्द्रचरणौ शिरसा नमामि श्रीरामचन्द्रचरणौ शरणं प्रपद्ये माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सखा रामचन्द्रः सर्वस्वं मे रामचन्द्रो दयालु नान्यं जाने नैव जाने न जाने दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनं लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् कारुण्यरूपं करुणाकरन्दं श्रीरामचन्द्रं शरणं प्रपद्ये मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये कूजन्तं राम रामेति मधुरं क्षरम् आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् आपरामपहर्तारं दातारं सर्वसम्पदां लोकाभिरामं श्रीरामं सम्पदां तर्जनं यमदूतानां राम रामीति गर्जनम्। रामो राजमणिः सदा विजयते, रामं रमेशं भजे। रामेणाभिहता निशाचरजम्, रामाय तस्मै नमः। रामान्नास्ति परायणं परतरं, रामस्य दासोऽस्म्यहम्। रामे चित्तरयः सदा भवतु मे, भो राम मामुद्धरः। राम रामेति रामेति रमे रामे मनोरमे, सहस्रनाम तत्तुल्यं राम राम वरानने। इति श्रीबुधकौशिकविरचितं श्रीरामरक्षा